सर्वेषां संस्कृतकक्षायां पुनः एकवारं स्वागतम्. प्रथमतया अहम् एकं श्लोकं वदामि. यदा यदा हि धर्मस्य ग्लानिर्भवति भारत, अभ्युत्थानमधर्मस्य तदात्मानं सुजाम्यहम्. भवन्तः सर्वे श्रुतवन्तः एव एतं श्लोकं, परन्तु अद्य अस्माकं विषयः अस्ति यदा तदा, तदर्थं वदामि. अस्य अर्थः कः इत्युक्ते, यदा यदा धर्मस्य हानिः भवति अपि च अधर्मस्य वर्धनं भवति तदा अहम् आत्मानं सृजामि इति भगवान् श्रीकृष्णः उक्तवान्. अत्र आत्मानं सृजामि इत्युक्ते किं, परमात्मा निराकारः एव, परन्तु यदा केवलं धर्मसंरक्षणार्थं, धर्मसंस्थापनार्थम् अपि च सज्जनानां रक्षणार्थं सः प्रत्येकं युगे अवतरति. सृजामि इत्युक्ते अवतारं धरति इति अर्थः. वयं सर्वे जानीमः एव धर्मः इति पदं केवलं संस्कृतभाषायाम् एव अस्ति. धर्मस्य रक्षणं, अधर्मस्य विनाशनं, कार्यद्वयमपि आवश्यकम् एव. धर्मः इत्युक्ते तत्र संस्कृतभाषायाम् एकः अन्यः श्लोकः अस्ति. धर्मः इत्युक्ते दशलक्षणानां सङ्ग्रहः एव धर्मः. धृतिक्षमादमस्तेयं शौचमिन्द्रियनिग्रहः, धीर्विद्या सत्यमक्रोधो दशकं धर्मलक्षणम् इति उक्तमस्ति. परन्तु ईदृशान् श्लोकान् अवगन्तुं संस्कृतभाषायाः अवगमनम् आवश्यकम्. अतः वयं सर्वे मिलित्वा अत्र भाषायाः अवगमनार्थं किञ्चित् प्रयत्नं कुर्मः. उत्तमम्. अपि च अत्र गते सप्ताहे वयं स्तः पर्यन्तम् इति पदद्वयस्य विषये किञ्चित् अधीतवन्तः. गृहपाठरूपेण वाक्यानि रचनीयानि. अनन्तरं किञ्चित् कालं गृहपाठविषये चिन्तनं कृत्वा तदनन्तरम् अभ्यासपुस्तकं प्रति गच्छेम. प्रथमतया वाक्यानि श्रावयन्तु. अत्र गीताञ्जलि भगिनी भवती श्रावयतु.
आं भगिनि. प्रातः सप्तवादनतः सार्धाष्टवादनपर्यन्तम् अहं बहिः शीघ्रं चरामि. अधिकतमा दिनानि सार्धाष्टवादनतः सार्धाष्टवादनतः अहं संस्कृतपाठेन सह चरामि.
मया संस्कृतपाठेन सह चरामि वा, तथा वक्तव्यं वा? भिन्नरीत्या वदतु.
यदा मम चरामि, यदा मम प्रतिदिनं चरामि,
अहं चरामि. भगिनि, अहं चरामि वाक्यं कर्त्रार्थे अस्ति चेत् अहं, यदा अहं चरामि, चलामि. मया न, मया केवलं कर्मण्यर्थे एव भवति. नो चेत् मया सह मित्रेण सह, तथा तृतीया उपयुज्य वदामश्चेत् यदा अहं चरामि.
सः उपयुज्य प्रयत्न करोमि भगिनि.
करोतु.
अधिकतमदिनानि अहं अधिकतमदिनानि मया संस्कृतपाठेन सह चरामि.
पूर्वस्मिन् वाक्ये सार्धाष्टवादनपर्यन्तम् इति उक्तवती. तत्तु सुन्दररीत्या उक्तवती. किमर्थं चेत् तत्र सन्धिं कृत्वा एव वक्तव्यं. किमर्थं चेत् तत्र यत्र यत्र समासः अस्ति तत्र सन्धिः करणीयः. सार्ध तत्र सार्धाष्टवादनपर्यन्तम् इति वदामः. किमर्थं चेत् तत्र सवर्णे दीर्घसन्धिः भवितुमर्हति. यदि वयं सन्धिम् अकृत्वा वदामश्चेत् सार्ध इति पदं लिखित्वा तदनन्तरं लघुरेखा योजयित्वा अष्टवादन इति लेखनीयं यदा वयं लिखामः. सार्ध इति लिखित्वा तदनन्तरं लघुरेखा तत्र लिखित्वा तदनन्तरम् अष्टवादन इति वदामश्चेत् सम्यक् भवति. नो चेत् सार्धाष्टवादनपर्यन्तम् इति भवती उक्तवती सुन्दररीत्या. तत्तु एकः विषयः. वदतु.
अस्तु अस्तु, धन्यवादः भगिनि. सपाद अष्टवादनतः सार्धनववादनपर्यन्तं योगासनं करोमि. तदनन्तरं आद्रोकेन सह चायं पीत्वा अहं पादोनदशवादनतः सार्ध दश द्वादशवादनपर्यन्तं संस्कृतभाषां पठामि. कदाचित् अहं भगिन्या सह अथवा उषा भगिन्या सह महोदय शोभा भगिन्या सह अथवा उषा भगिन्या सह वक्ताम वदति. किन्तु यदि शोभा भगिन्या अथवा उषा भगिन्या सह इति सम्यक् वा?
शोभा भगिनी उषा भगिन्या तत्र मिलित्वा कथं वक्तव्यं? च योजयित्वा वक्तव्यं वा?
अस्तु अस्तु. शोभा भगिन्या सह अथवा उषा भगिन्या सह द्वादशवादनतः चतुर्वादनपर्यन्तं दूरवाण्येन संस्कृतम् अभ्यासाः करोमि.
दूरवाण्या सह तदपि दूरवाणी ईकारान्तपदम्.
दूरवाण्या सह
यथा नदी शब्दवत्.
अस्तु अस्तु आं भगिनि, तावदेव भगिनि.
अभ्यासान् करोमि.
दूरवाण्या सह सम्यक् अस्ति वा? समीचीनं वा सः अत्र दूरवाण्या सह? दूरवाण्या एव वक्तव्यं न, दूरवाण्या करण.
आम् महोदय, तदेव सम्यक्. अत्र सः इति योजनस्य आवश्यकता नास्ति. दूरवाण्या भगिनी, अत्र केवलं दूरवाण्या इति वदामश्चेत् पर्याप्तं भवति. किमर्थं चेत् अहं लेखन्या लिखामि तथा दूरवाण्या वदामि, परन्तु मित्रेण सह गच्छामि अथवा पुत्र्या सह गच्छामि. अत्र उत्तमं महोदय, सम्यक्. अनन्तरम् अत्र अभ्यासान् करोमि किमर्थं चेत् अत्र क्रूधातुः सकर्मकः इति भूत्वा बहुवचन द्वितीया विभक्त्यन्तरूपम् आवश्यकम्. उत्तमम्. अनन्तरम् अत्र तावदेव
भगिनि, एकः संशयः अस्ति. यदा वयं वदामः तदा सन्धिविवक्षानुगुणं करणीयमिति अस्ति नियमस्ति. यदि विवक्षा नास्ति चेत् सन्धि अकृत्वा अपि वयं वक्तुं शक्यते, अस्माभिः वक्तुं शक्यते. परन्तु लेखनसमये सन्धि अपि सन्धि करणीयमेव करणीयम् इति कोऽपि नियमः अस्ति वा? विना सन्धेः लिखितुं शक्यते वा? समीचीनं वा?
अत्र महोदय, अत्र एकः श्लोकः अस्ति. श्लोकः किं वदति इत्युक्ते, वाक्ये तु वाक्ये सन्धिः विकल्पः, इत्युक्ते अस्माकं विवक्षानुगुणं वाक्ये सन्धिं कर्तुं शक्नुमः, नो चेत् अपि समीचीनमेव. परन्तु
वाक्ये
परन्तु अत्र शृणोति एकवारम्. अत्र वाक्ये अस्माकं विवक्षा अपेक्षते, परन्तु यदि एकस्मिन् पदे समासः अस्ति चेत् सन्धिः नित्यः. समासः अस्ति चेत् सन्धिः नित्यः, अथवा एकस्मिन् पदे उपसर्गः अस्ति चेत् सन्धिः नित्यः. अपि च तृतीयः नियमः अपि अस्ति. परन्तु वाक्ये विवक्षाम् अपेक्षते
लेखनसमये अपि.
अत्र सार्थाष्ट लेखनसमये अपि
किमर्थम् इत्युक्ते, भवती उक्तवती अत्र अष्ट सार्ध अष्टवादन, अत्र हैफन् लेखनीयम् इति. तथैव अन्यानि स्थलेषु अपि तथा एव करणीयं वा? यदा स्वरसन्धिः भवति तदा.
आं महोदय, अत्र अहम् एकं वदामि. अत्र प्रथमतया सार्धाष्टवादन तत्र समासः अस्ति, तदर्थं तत्र सन्धिः नित्यः. परन्तु अत्र गते सप्ताहे एव अहम् एकं पुस्तकं पठितवती. पुस्तकस्य नाम अस्ति भाषापाकः. तस्मिन् पुस्तके अहं विशिष्टरीत्या एकं सम्भाषणं पठितवती. तस्मिन् सम्भाषणे अत्र सन्धिः यत्र यत्र समासः अस्ति तत्र सन्धिः नित्यः भवति, नित्यः भवति. तत्र श्लोकः अपि अस्ति, संहितैकपदे नित्यं धातूपसर्गयोः नित्या समासे वाक्ये तु सा विवक्षाम् अपेक्षते. इत्युक्ते एकस्मिन् पदे सन्धिः नित्यः, धातूपसर्गयोः सन्धिः नित्यः, समासे सन्धिः नित्यः नित्यं कर्तव्यः, परन्तु वाक्ये
विवक्षा.
अस्माकं कक्षायाः अनन्तरम् अहं तत् सम्भाषणं करपत्रं प्रेषयामि.
अस्तु, धन्यवादः.
वद उत्तमम्. अनन्तरं शोभा भगिनी वदतु.
भगिनी क्षम्यताम्, अहं न लिखितवती.
वदतु किमपि, नो चेत् प्रयत्नं करोति वा अधुना?
आं भगिनि, अहं षड्वादने उत्तिष्ठामि, स्नानं करोमि, षड्वादनतः सार्ध षड्वादनपर्यन्तम्, अनन्तरम् अहं षड्वादनतः सार्ध सप्तवादनपर्यन्तं ध्यानम् अपि श्लोकपठनं स्तोत्रपठनं करोमि. सार्धसप्तवादनतः मम दिनचर्या इति नास्ति भगिनि, अहं सार्धसप्तवादन तः नववादनपर्यन्तम् अहं संस्कृतपठनं करोमि. तदनन्तरं नववादनतः दशवादनपर्यन्तं योगासनं करोमि. अनन्तरं किं करोमि, दशवादनतः एकादशवादनपर्यन्तं अहं किञ्चित् गृहकार्यं करोमि. अनन्तरं मध्याह्नकाले अहं त्रिवादनतः चतुर्वादनपर्यन्तं पाकं करोमि. इति
मम दिनचर्या.
हा,
इति
मम दिनचर्या. कानिचन कार्याणि
इत्युक्ते इति मम दिनचर्या, तत् पर्याप्तं. नो चेत् इति मम दिनचर्या यां कानिचन कार्याणि,
स्त्रीलिङ्ग दिनचर्याः कानिचन कार्याणि.
उत्तमम्. अपि च अत्र तने महोदय भवान् वदतु.
अस्तु भगिनि, अहं षड्वादनतः सप्तवादनपर्यन्तं योगाभ्यासं प्रतिदिनं करोमि. द्वादशवादनतः सार्धद्वादशवादनपर्यन्तं भगवद्गीतायां श्लोकानाम् उचितम् उच्चारणं कथं करणीयम् इति पठामि. सायङ्काले षड्वादनतः सप्तवादनपर्यन्तं ज़ुम्बा करोमि.
उत्तमम् महोदय. अनन्तरम् उषा भगिनी भवती वदतु.
आं भगिनि, वयम् अष्टवादनतः सार्धाष्टवादनपर्यन्तम् अन्तर्जालमाध्यमेन एव विष्णुसहस्रनामपारायणं कुर्मः. अहम् एकादशवादनतः द्वादशवादनपर्यन्तं संस्कृतस्य गृहपाठं करोमि. प्रति मङ्गलवासरे सायङ्काले सार्धसप्तवादनतः नववादनपर्यन्तम् अस्माकं संस्कृतकक्ष्या भवति. अहं मम मित्रेण सह प्रति बुधवासरे नववादनतः द्वादशवादनपर्यन्तं कुम्भशाला गच्छामि.
भगिनि, किं कुम्भशाला वा?
पाटरी.
ओ अस्तु, अवगच्छामि.
कार्यसिद्धि हनुमान् मन्दिरे प्रति शनिवासरे नववादनतः सार्धदशवादनपर्यन्तं भगवद्गीतायाः पारायणं छात्रैः क्रियते. तावदेव भगिनि.
उत्तमानि वाक्यानि. अनन्तरम् अत्र आचार्यमहोदय भवान् श्रावयतु.
अहं प्रातः पञ्चवादनतः षड्वादनपर्यन्तं संस्कृताभ्यासं करोमि. प्रातः अष्टवादनतः नववादनतः नववादनपर्यन्तं द्विचक्रिकया भ्रमणं करोमि. दशवादनतः सार्धद्वादशवादनतः कार्यालये कार्यं करोमि. तावदेव भगिनि.
अस्तु, उत्तमम्. अनन्तरम् अधुना गीताञ्जलि भगिनी, अत्र अन्यः अभ्यासः अपि अस्ति. अत्र आरभ्य इति पदं योजयित्वा मालागोपालयोः सम्भाषणं गीताञ्जलि भगिनी भवती करोति वा?
आं भगिनि.
अत्र अष्टचत्वारिंशत्तमे पुटे अभ्यासपुस्तकस्य अष्टचत्वारिंशत्तम.
एतस्मिन् सम्भाषणे एकं द्वे त्रीणि चत्वारि अत्र रमेशस्य सङ्गीतकक्ष्यां पितृव्यस्य इति परिवर्तनं कृत्वा सम्भाषणं पुनः लिखतु. माला गोपालः
वदतु भगिनि अत्र वदतु.
रमेशस्य सङ्गीतकक्ष्या सङ्गीतकक्ष्यां
अत्र पश्यतु भगिनि अत्र किं दत्तमस्ति इत्युक्ते अस्मिन् सम्भाषणे चतस्रः सङ्ख्याः दत्ताः एकं द्वे त्रीणि चत्वारि तथा चतस्रः सङ्ख्याः दत्ताः सम्भाषणे तेषां स्थाने अत्र रमेशस्य अथवा सङ्गीतकक्षा इति नूतनपदं योजयित्वा सम्भाषणं पुनः लेखनीयं. तेन किं भवति इत्युक्ते इदमेव अत्र अयमेव अभ्यासः पुनः एकवारं कुर्मः चेत् तदा सम्यक् अभ्यासः भवति इति अत्र आशयः. इत्युक्ते प्रारम्भतः पुनः एकवारं पठतु, यत्र यत्र सङ्ख्याः सन्ति तत्र नूतनं पदं योजयित्वा किञ्चित् परिवर्तनं कृत्वा वदतु.
अस्तु अस्तु, धन्यवादः भगिनी. माला गोपाल, भवतः परीक्षा समीपम् आगता अस्ति, अद्य आरभ्य प्रतिदिनं पठतु. गोपालः, अद्य अहं रमेशस्य गृहं गच्छामि, श्वः आरभ्य पठिष्यामि भगिनि. माला, भवतु गोपाल विद्यालये योगासन सङ्गीतकक्ष्या विद्यालये सङ्गीतकक्ष्या कदा आरम्भ्य भविष्यति
भगिनि? अत्र अत्र पदमस्ति आरभ्य, तत्र मकारः नास्ति.
आरभ्य कदा आरभ्य भविष्यति? गोपालः, परश्वः आरभ्य भविष्यति. माला, परश्वः मम अवकाशः न भविष्यति, प्रपरश्वः आरभ्य अहमपि सङ्गीतकक्ष्याम् आगमिष्यामि.
अत्र पश्यतु भगिनि, अस्मिन् वाक्ये कर्मपदमस्ति वा?
प्रपरश्वः आरभ्य अहमपि सङ्गीतकक्ष्यां कक्ष्याम् इत्युक्ते द्वितीयविभक्ति कर्मपदम्.
उत्तमम्. इत्युक्ते अत्र पदमस्ति योगासनकक्ष्या, परन्तु अस्मिन् वाक्ये अत्र आ उपसर्गपूर्वकः गम् धातुः अस्ति इति कृत्वा गम् धातुः सकर्मकः, अतः योगासनकक्ष्यां गमिष्यामि. कुत्र गमिष्यामि? योगासनकक्ष्यां गमिष्यामि अहमपि. अत्र द्वितीयविभक्त्यन्तरूपम् अस्ति इत्युक्ते कर्मपदमस्ति. वदतु.
गोपालः, भगिनी, पितृव्यस्य पत्रम् आगतं वा? माला, नैव भोः, अहं परह्यः आरभ्य तस्य परीक्षां कृतवती, परन्तु न आगतम् एव.
अत्र प्रतीक्षा इति पदमस्ति, प्रतीक्षां कृतवती. सा किं कृतवती? प्रतीक्षां कृतवती. कदा आरभ्य कृतवती?
कदा आरभ्य? परह्यः आरभ्य.
किं न आगतम्? इदानीं पर्यन्तं सा माला परह्यः आरभ्य तस्य प्रतीक्षां कृतवती. कस्य?
अधुना पितृव्यस्य पत्रम् प्रतीक्षां कृतवती
पितृव्यस्य पितृव्यस्य पत्रस्य
पितृवस्य पत्रस्य न आगतम् एव.
अत्र किं कथं वदामः, पितृव्यस्य पत्रस्य प्रतीक्षां कृतवती सा, परन्तु पत्रं न आगतम्.
परन्तु पत्रं पितृवस्य पत्रं न आगतम्.
सुन्दरम्. अत्र पितृव्यः इत्युक्ते कः?
पितृव्यः इत्युक्ते पिता.
न, पितृव्यः इत्युक्ते कः वदति?
फादर्स् ब्रदर्.
संस्कृत संस्कृतभाषायां किं वदामः?
पितुः भ्राता.
सुन्दरं. मातुलः, मातुलः इत्युक्ते मातुः भ्राता. उत्तमं. तावदेव. अनन्तरम् अद्य अस्माकं विषयः अस्ति यदा तदा. यदि भवन्तः श्रुतवन्तः एव, परन्तु किञ्चित् वदामि तस्मिन् विषये. इत्युक्ते एते द्वे पदे नित्यसम्बद्धौ. इत्युक्ते एकस्मिन् वाक्ये यदि यदा इति पदम् आगच्छति तदा, तर्हि तदा इति पदं निश्चयेन आगच्छति. इत्युक्ते तौ तत्र तौ द्वौ शब्दौ एकस्मिन् एव वाक्ये यदि यदा इति पदम् आगच्छति चेत् तदा निश्चयेन आगच्छति, तत्र विकल्पः नास्ति. परन्तु तदा इति पदम् आगच्छति चेत् यदा न आगच्छति, तत्र विपरीतक्रमेण न भवति. तदा इति पदं यदा कदापि आगन्तुं शक्नोति. यदि वयं कथां पठामः तत्र तदा किम् अभवत्, तदा तदा इति पदं बहुवारम् आगच्छति. परन्तु यदा इति पदम् आगच्छति चेत् तदा आगच्छति एव. परन्तु अत्र वयं पूर्वं पठितवन्तः यदि तर्हि, तत्र भेदः कः तयोर्मध्ये, यदि तर्हि अपि च यदा तदा. यदि तर्हि वदामश्चेत् तत्र कारणमस्ति. अत्र वाक्यद्वयमस्ति चेत् तत्र प्रथमं वाक्यं कारणं वदति, द्वितीयं वाक्यं तत्र कार्यं वदति. परन्तु यदा तदा वदामश्चेत् तत्र केवलं कालस्य विषये एव वदति. यदा अहं उत्तिष्ठामि तदा किमपि, तदा योगासनं करोमि, किमपि. अत्र यदा इति पदम् आगच्छति चेत् तदा तस्मिन्नेव वाक्ये तदापि आगन्तुं शक्नोति इति अर्थः. प्रथमतया अत्र अभ्यासपुस्तके किम् अस्ति इति दृष्ट्वा किञ्चित् अभ्यासं कुर्मः. अधुना शोभा भगिनी भवती वदतु. अष्टचत्वारिंशत्तमे पुटे.
आं भगिनि, यदा तदा यदा अहं तत्र गतवान् तदा सः पठति स्म. यदा भवान् बेङ्गलूरु आगमिष्यति तदा मम गृहे एव वासं करोतु, अहं सज्जः भवामि. यदा भवान् आगच्छति तदा गच्छामः. यदा वयं काश्मीरं गतवन्तः तदा तत्र बहु शैत्यम् आसीत्. यदा अहं भवतः गृहम् आगतवान् तदा भवान् कुत्र गतवान् आसीत्? यदा अहं विद्यार्थिनी आसम् तदा संस्कृतं पठितवती.
अत्र षड् वाक्यानि सन्ति, परन्तु एकमेकं वाक्यं स्वीकृत्य किञ्चित् चिन्तनं कुर्मः. प्रथमं वाक्यं पश्यतु भगिनी, अत्र वाक्यं कस्मिन् काले अस्ति, इत्युक्ते वर्तमानकाले अस्ति वा, भूतकाले अस्ति वा, भविष्यत्काले अस्ति वा?
तत्र प्रथमवाक्ये भूतकाले अस्ति, गतवान्. यदा अहं तत्र गतवान् तदा सः पठति स्म.
अत्र भवती कथं ज्ञातवती इत्युक्ते अत्र गतवान् अपि च स्म पदद्वयमस्ति. गतवान् गतवान् केवलं भूतकालार्थे एव योजयित्वा वदामः, अपि च स्म इति अपि तथा एव. द्वितीयं वाक्यं, वाक्यस्य विषये वदतु.
यदा भवान् बेङ्गलूरु आगमिष्यति तदा तत्तु भविष्यकाले भवति. यदा भवान् बेङ्गलूरु आगमिष्यति कदापि तदा मम गृहे एव वासं करोतु. वासं करोतु लोट् लकारे अस्ति किन्तु भविष्ये भवति.
इत्युक्ते वाक्यं भविष्यत् काले अस्ति. अनन्तरं तृतीयं वाक्यं पश्यतु.
अहं सज्जः भवामि यदा भवान् आगच्छति तदा गच्छामः. अहं सज्जः भवामि लट्लकारे अस्ति. अनन्तरं यदा भवान् आगच्छति तदा गच्छामः. आगच्छति यदा आगच्छति भवान् अधुना न आगतवन्तः आगतवन्तः अथवा आगतवान् नो आगतवान् यदा भवान् आगच्छति चेत् अनिश्चयवाक्यः भविष्यत्
अत्र न भगिनी तादृशचिन्तनं मास्तु. अत्र केवलम् अत्र किम् अस्ति इत्युक्ते अत्र वर्तमानार्थे अस्ति वाक्यं.
यदा भवान् आगच्छति अपि वर्तमाने अर्थे अस्ति.
इत्युक्ते अत्र आगच्छति अपि च गच्छामः इति पदद्वयं लट्लकारे अस्ति इत्युक्ते वर्तमानार्थे अस्ति. अपि च अत्र चतुर्थं वाक्यं पञ्चमं वाक्यं षष्ठं वाक्यं केवलं भूतकालार्थे एव अस्ति. गतवन्तः काश्मीरं गतवन्तः शैत्यम् आसीत् तथा एव गृहम् आगतवान् कुत्र गतवान् आसीत् इत्युक्ते भवती किम् अवगतवती अत्र एतेषां वाक्यानां परिशीलनानन्तरं भवती किम् अवगतवती यदा तदा विषये?
हा यदा तदा त्रिकाले अस्ति. किमपि काले वयं यदा तदा स्वीकृत्य वाक्यं रचितुं शक्नुमः.
अत्र किं वदामः त्रिषु कालेषु.
ओ त्रिषु कालेषु भवति यदा
इत्युक्ते यदा तदा योजयित्वा वाक्यं यथा भवती उक्तवती वर्तमानकाले अपि वाक्यं रचयितुं शक्नुमः भूतकाले अपि च भविष्यत्काले अपि यदा तदा इति पदयुगलं योजयित्वा वाक्यरचनां कर्तुं शक्नुमः. अनन्तरम् उत्तमं भगिनि तदेव. अनन्तरम् अत्र उषा भगिनी भवती वदतु अधुना वयं किञ्चित् अभ्यासं कुर्मः.
भगिनी एकः प्रश्नः. तृतीयबिन्दु अहं सज्जः भवामि यदा भवान् आगच्छति तदा गच्छावः सम्यक् वा?
इत्युक्ते अत्र बहवः जनान् बहवः जनाः सन्ति चेत् तान् बहून् जनान् उद्दिश्य सः वा सा वा वदति तदपि समीचीनं भगिनि. अत्र यदा भवान् आगच्छति तदा गच्छामः. अस्तु इत्युक्ते अत्र वयं सर्वे वदतु
द्वे जना अहं अथवा भवान्
अत्र भवती सम्यक् प्रश्नः. यदा भवान् आगच्छति तदा आवां गच्छावः इत्यपि समीचीनम्. आवां गच्छावः नो चेत् वयं गच्छामः. सम्यक् प्रश्नः. सज्जः इत्युक्ते किं भगिनि वदतु?
सज्जः इत्युक्ते रेडि इत्युक्ते
सज्जः इत्युक्ते सिद्धः. उत्तमम्. अनन्तरम् अधुना उषा भगिनी भवती किञ्चित् प्रयत्नं कृत्वा अहं वाक्यस्य अत्र यदा तदा योजयित्वा वाक्यस्य प्रथमभागं वदामि. भवती किञ्चित् चिन्तनं कृत्वा वक्तुं प्रयत्नं करोतु. यदा वृष्टिः भवति तदा मार्गे अहं प्रथमं वाक्यं वदामि. यदा वृष्टिः भवति तदा मार्गे वृक्षाः पतन्ति. अनन्तरं यदा मार्गे वृक्षाः पतन्ति तदा किं भवति?
यदा मार्गे वृक्षः
पतन्ति, मार्गे यदा वृष्टिः भवति साधारणतया मार्गे वृक्षाः पतन्ति
तदा कार्यानं न गच्छति.
उत्तमं. कारयानं न गच्छति इत्युक्ते तदा किं वदामः? यदा मार्गे वृक्षाः पतन्ति तदा सर्वाणि वाहनानि स्थगितानि भवन्ति.
स्थगितानि भवन्ति.
उत्तमं. यदा शिक्षिका सम्यक् पाठयति तदा
यदा शिक्षिका सम्यक् पाठयति तदा छात्राः छात्राः उत्तीर्णः उत्तीर्णः
छात्रः वदति वा छात्राः वदति वा?
छात्राः
छात्राः उत्तीर्णाः भवन्ति. भवन्ति न योजयामश्चेत् सम्यक् एव. तदा छात्राः उत्तीर्णाः भवन्ति. यदा मम मित्रम् आगच्छति तदा चलनचित्रं योजयित्वा वदतु.
यदा मम मित्रम् आगच्छति तदा वयं चलनचित्रं द्रष्टुं गच्छामः.
उत्तमम् उत्तमं. तथा एव यदा यदा नेता आगच्छति, नेता वा अपि च अभिनेत्री वा आगच्छति, नगरम् आगच्छति तदा किं कुर्मः? करताडनं वदतु.
यदा नेत्री आगच्छति तदा जनाः द्रष्टुं
गच्छन्ति. उत्तमम् उत्तमं. तदेव इत्युक्ते अत्र यदा नेता वा अथवा अभिनेत्री वा नगरम् आगच्छति तदा वयं अथवा जनाः करताडनं कुर्वन्ति. अपि च यदा माता पाकं करोति तदा पुत्री
खादति.
वदतु भगिनि वाक्यं पूर्णतया वदतु.
यदा माता पाकं करोति तदा पुत्री आनन्देन खादति.
उत्तमं. तावदेव तादृशरीत्या एव अभ्यासः करणीयः. अपि च यदा अध्यापकः कक्षायाम् आसन्दे उपविशति तदा छात्राः
आसन्दे छात्राः नमस्कारं कुर्वन्ति.
उत्तमं. नमस्कारं कुर्वन्ति. उत्तमम्. अपि च यदा वनेषु पुष्पाणि विकसन्ति तदा
भ्रमराः अटन्ति.
अटन्ति. उत्तमं. तावदेव. अपि च यदा धनिकस्य धनं नष्टं भवति तदा
धनिकस्य नष्टं भवति तदा निर्धनः भवति.
इत्युक्ते यदा धनिकस्य धनं नष्टं भवति तदा धनिकः दुःखी भवति अथवा निर्धनः भवति. उत्तमम्. अपि च यदा अध्यापकः कक्षाम् आगच्छति तदा छात्राः तूष्णीं तिष्ठन्ति. यदा प्रातःकालः भवति तदा वदतु.
यदा प्रातःकालः भवति तदा पक्षिणः गायन्ति.
उत्तमम्. यदा मम भोजनं समाप्तं तदा
यदा मम भोजनं समाप्तं तदा अहं पर्याप्तं न
तदा
भोजनं समाप्तं तदा अहं
प्रक्षालनं कर्तुं गच्छामि.
किमपि अत्र अत्र सम्यक् वा न इति नास्ति भगिनि, किमपि वदतु, केवलं प्रयत्नं कुर्मः तावदेव.
यदा
उत्तमं भगिनि करोतु.
यदा भोजनं समाप्तम् अहम् उत्तिष्ठामि, लैक् टु वाश् मै हेण्ड्.
उत्तमं, तावदेव. उत्तमं भगिनि. अनन्तरम् अत्र वंशसुधा भगिनी भवती करोति वा किञ्चित् प्रयत्नं करोति वा?
नमस्ते महोदय, अद्य अहं केवलं शृणोमि भगिनि, गृहे किञ्चित् कार्यमस्ति, क्षम्यताम्.
अस्तु अत्र तने महोदय भवान् प्रयत्नं करोति वा किञ्चित्?
आं भगिनि.
किञ्चित् किञ्चित् उच्चैः वदतु महोदय.
आं भगिनि,
यदा अधुना सम्यक् श्रूयते. यदा संस्कृतपरीक्षा सन्निहिता अस्ति तदा एव छात्राः
पठन्ति.
पूर्णतया वाक्यं वदतु
एकवारं पुनः वदतु भगिनि.
यदा संस्कृतपरीक्षा सन्निहिता अस्ति,
यदा संस्कृतपरीक्षा सन्निहिता, अहं सम्यक्तया न
परीक्षा सन्निहिता,
यदा संस्कृतपरीक्षा सन्निहिता अस्ति तदा एव छात्राः पठन्ति.
उत्तमम्. अत्र सन्निहिता इति पदं परीक्षाशब्दस्य विशेषणं भवति, परन्तु क्तान्तरूपम् अत्र सम् उपसर्गपूर्वकः, नि उपसर्गपूर्वकः, धा धातुः. वयं जानीमः धा धातुं जानीमः, परन्तु अत्र धा धातुः संयोगः, नियोगः, धा योगः, क्तान्तरूपं परीक्षा सन्निहिता भवति तदा एव छात्राः पठने निरताः भवन्ति. उत्तमं महोदय. अपि च यदा माता अस्वस्था जाता गृहे तदा पिता एव
यदा माता अस्वस्था जाता गृहे तदा पिता एव पाककार्यं करोति.
सुन्दरं सुन्दरं. यदा माता अस्वस्था जाता तदा पिता एव पाकं करोति. उत्तमम्. अपि च यदा अवसरः प्राप्तः तदा एव मम सखी दूरवाण्या दूरभाषां कृतवती. तथा वदतु. यदा अवसरः प्राप्तः,
यदा अवसरः प्राप्तः तदा एव अहं चलचित्रं पश्यामि.
अस्तु, तथा एव यदा श्रीरामः वनं गतवान् तदा दशरथः
अतीव दुःखम् अनुभूतवान्.
सुन्दरं. दुःखम् अनुभूतवान्, अपि च प्राणान् त्यक्तवान्. उत्तमम्. उत्तमं महोदय. अपि च यदा अध्यापकः छात्रं प्रश्नं पृच्छति तदा छात्रः
यदा अध्यापकः प्रश्नं पृच्छति तदा छात्रः तूष्णीं तिष्ठन्ति. छात्राः तूष्णीं तिष्ठन्ति.
महोदय, अत्र यदि अध्यापकः प्रश्नं पृच्छति चेत् तदा छात्रः उत्तरं वदति वदामः वा, नो चेत् तूष्णीं तिष्ठति वा, किमपि तत्र भवान् उक्तवान्, सम्यक् एव. अत्र अनन्तरम् अत्र अपि च यदा मया पुस्तकं पठितं तदा विषयः
यदा मया पुस्तकं पठितं तदा विषयः अवगन्तुं शक्तवान्।
अत्र वाक्यं कर्मण्यर्थे अस्ति, किञ्चित् क्लिष्टकरं वाक्यं। यदा मया पुस्तकं पठितं, मया पुस्तकं पठितं कर्मण्यर्थे अस्ति, तदा किं भवति? मया विषयः ज्ञातः तथा भवति। किम् इत्युक्ते अत्र इत्युक्ते यदा तदा योजयित्वा वयं वाक्यानि एतादृशरीत्या रचयितुं शक्नुमः। अपि च यदा यदा पुत्री भोजनं खादति तदा माता
पुत्री भोजनं खादति तदा माता सुखम् अनुभवति।
उत्तमम् उत्तमम्। तथा एव यदा भिक्षुकेण अन्नं प्राप्तं तदा
यदा भिक्षुकेण अन्नं प्राप्तं तदा तदा तेन प्रसन्नः जातः। कर्मणि प्रयोगः अस्ति अत्र।
आं महोदय, अत्र अत्र एकः विषयः अस्ति। जातः इति वदामश्चेत् जन्धातुः अकर्मकधातुः, यदि क्तान्तरूपं योजयित्वा अकर्मकधातुः अकर्मकधातुम् उपयुज्य वाक्यरचनां कुर्मः चेत् तत्र कर्त्रर्थे एव वाक्यं सम्भवति। सः सन्तुष्टः जातः, अथवा भवान् किम् उक्तवान् पूर्वस्मिन् वाक्ये?
प्रसन्नः जातः।
प्रसन्नः जातः इत्युक्ते अत्र जातः इति पदं, यद्यपि जातः इति पदं क्तान्तरूपं, परन्तु जन् धातुः अकर्मकः इति कृत्वा तत्र कर्त्रर्थे एव वाक्यं सम्भवति। इत्युक्ते अत्र यदा भिक्षुकेण अन्नं प्राप्तं तदा सः सन्तुष्टः जातः, अथवा सः प्रसन्नः जातः।
अस्तु भगिनि।
परन्तु यथा भवान् उक्तवान् तेन योजयित्वा वदामश्चेत् किं वदामः? यदा भिक्षुकेण अन्नं प्राप्तं तदा तेन
सम्यक्तया
वदतु। खाद्यधातु, महोदय, खाद्यधातुं योजयित्वा वदतु।
यदा भिक्षुकेण अन्नं प्राप्तं तदा तेन
भोजनं
खादितम्।
उत्तमं।
भोजनं शीघ्रं खादितं।
सुन्दरं। तदा तेन भोजनं खादितम् इत्युक्ते अत्र खाद्यधातुः सकर्मकः इति कृत्वा तेन भोजनं खादितं, सम्यक् रूपम्। उत्तमं महोदय। अधुना रघुपत्याचार्यमहोदय, भवान् कर्तुमिच्छति वा किञ्चित्?
आं भगिनि।
अत्र यदा शुनकः मार्जालं पश्यति तदा
मार्जालः धावति।
अस्तु। यदा कुरुक्षेत्रे अर्जुनः भीष्मस्य शङ्खनादं श्रुतवान् तदा सः
दुःखम् अनुभूतवान्।
उत्तमम्। यदा अर्जुनः दुःखम् अनुभूतवान् तदा
श्रीकृष्णः तं कर्मयोगं बोधितवान्।
उत्तमम् उत्तमम्। इत्युक्ते भगवद्गीताम् उपदिष्टवान्। उत्तमम्। उत्तमम्। अनन्तरं यदा अर्जुनः भगवद्गीतां श्रुतवान् तदा
यदा अर्जुनः भगवद्गीतां श्रुतवान् तदा सः युद्धं कर्तुं सन्नद्धः अभवत् सन्नद्धः
अभवत्। उत्तमं महोदय। अपि च यदा चन्द्रः उदेति तदा कुमुदं
विकसति।
उत्तमं। तथा एव यदा वृक्षः कम्पते तदा सर्वाणि पर्णानि
पतन्ति।
यदा माता देवं वन्दते तदा पुत्री अपि
ताम् अनुसरति।
उत्तमम्। अपि च यदा बालकः स्नानं कुर्वन् आसीत् तदा एव जलागमनं
स्थगितम्।
उत्तमं महोदय। तादृशरीत्या किञ्चित् अभ्यासः अभवत् अस्माकं
महोदय। अत्र यदा तदा अस्ति तत् सतिसप्तम्याः सतिसप्तमी अपि एतदर्थे एव वयम् उपयोगं कर्तुं शक्नुमः न सतिसप्तमी अपि।
आं महोदय, आं सम्यक् उक्तवान्। अत्र वयम् अग्रे गत्वा गीताप्रवेशः इति पुस्तके तत्र सतिसप्तमी इति एकः विषयः अस्ति। सतिसप्तम्यां किं वदामः, यदा तदा इति इत्यस्मिन् स्थाने सतिसप्तमी योजयित्वा वाक्यरचनां कर्तुं शक्नुमः। यथा भवान् उक्तवान् तत् सम्यक् एव। उत्तमं महोदय। अनन्तरम् अत्र सतीश् महोदय, अत्र अधुना वयं गीतासोपानपुस्तकात् उद्धृतं करपत्रं पश्याम एकवारं। तत्रापि यदा तदा योजयित्वा बहूनि वाक्यानि सन्ति, उत्तमानि वाक्यानि। अत्र सर्वेषां पार्श्वे गीतासोपानं पुस्तकमस्ति चेत् पुस्तकं पश्यन्तु, नो चेत् अहं करपत्रं प्रेषितवती। वदति वा महोदय?
यदा तदा वाक्यानि अवयवौ योजयन् वाक्यानि रचत्
महोदय। अत्र न महोदय, अत्र यदि भवतः पार्श्वे गीतासोपानं पुस्तकमस्ति चेत् अत्र 158 पुटं पश्यतु, तत्र नो चेत् अहम् एकं करपत्रं प्रेषितवती।
अधुना विषेदति कृष्ण शान्तव्यति
तदेव।
यदा धर्मस्य ग्लानिर्भवति तदा भगवतः अवतारः करोति।
महोदय, एकमेकं वाक्यं वदतु। अत्र प्रथमं वाक्यं पठतु पुनः एकवारम्।
अर्जुनः विषेदति कृष्णः शान्तव्यति। यदा अर्जुनः विषेदति तदा कृष्णः शान्तव्यति।
अत्र पश्यतु महोदय, अत्र पश्यतु, अत्र पदमस्ति सान्त्वयति। यदा अर्जुनः विषीदति तदा कृष्णः सान्त्वयति। इत्युक्ते किं महोदय, वदतु स्वस्य वाक्यैः वदतु।
सान्त्वना ददाति कृष्णः सान्त्वनः ददाति।
इत्युक्ते अत्र यदा अर्जुनः विषादम् अनुभवति तदा
कृष्णः सान्त्वनं ददाति।
उत्तमम्। सान्त्वनम् इत्युक्ते अत्र विश्वासयति अथवा एकम् अन्यं पदमस्ति समाश्वासयति। अथवा विश्वासं ददाति। विश्वासं ददाति अनन्तरं द्वितीयं करोतु।
द्वितीयं, धर्मस्य ग्लानिः भवतः भगवतः अवतारः। यदा धर्मस्य ग्लानिर्भवति तदा भगवतः अवतरति।
भगवतः अवतारः भवति।
अवतारः भवति, अवतारं करोति, अवतरति।
उत्तमम्। अत्र पश्यतु, भगवतः इति पदमस्ति, तस्य विभक्तिः का वदतु।
भगवतः एकवचन प्रथम
न महोदय, कः वदति भगवतः अवतारः
पञ्चमी सोरि षष्टि
भगवतः उत्तमं महोदय यदा यदा धर्मस्य ग्लानिः तदा भगवतः अवतारः यथा भवान् उक्तवान् अत्र भवति इति योजनेन योजयामः चेदपि सम्यक् एव नो चेत् अपि सम्यक् एव अत्र अत्र स्वस्य वाक्यैः वदतु धर्मस्य ग्लानिः इत्युक्ते किं
धर्मस्य ग्लानि भवति ह्रासं भवति धर्मस्य ह्रासं भवति ग्लानि अर्थे
ग्लानिः ग्लानिः इत्युक्ते भवान् किम् अवगतवान्
ग्लानि ह्रासं ह्रासं शून्य शून्यते शून्यं भवति
अस्तु शून्यं भवति इत्युक्ते इत्युक्ते धर्मस्य हानिः भवति
हानिः भवति
तदा किं भवति यदा धर्मस्य ग्लानिः भव हानिः भवति तदा
भगवतस्य अवतारं भवति भगवतः
भगवतः अवतारं भवति वयं पूर्वमेव चर्चितवन्तः अत्र भगवान् इति प्रथमाविभक्ति अन्तरूपं भगवत् इति प्रातिपदिकं सकारान्तपदम् इत्युक्ते हलन्तपदम् हलन्तपदम् इति कृत्वा उत्तमं तृतीयं करोतु
चित्तं विनियतं योगे उच्यते यदा चित्तं विनियतं तदा योगः उच्यते
इत्युक्ते किं
यदा चित्तं विनियतं यदा चित्तं सङ्ग्रहणं कृत्वा
कः वदति विनियतं वदतु भगिनि
चित्तं विनियतं लैक् मतिः तं नियन्त्रणं न अस्ति
ओ विनियतं
सुन्दरम् इत्युक्ते अत्र यथा भगिनी उक्तवती चित्तम् इत्युक्ते अत्र वयं जानीमः एव मतिः अथवा बुद्धिः यदा विनियतं विनियतम् इत्युक्ते मतेः नियन्त्रणम् अस्ति योगः उच्यते अत्र अत्र नियन्त्रणम् अथवा नियन्त्रितं तस्य अर्थे एकः एकम् अन्यं पदमस्ति संयमः इत्युक्ते चित्तस्य विनियतं यदा भवति तदा योगः उच्यते अत्र वाक्यं योगः उच्यते इति पद अत्र वाक्यं कर्मण्यर्थे अस्ति कर्मणि वाक्यं चतुर्थं करोतु
यदा चित्तं विनियतं तदा योगः उच्यते तदा तदा योगस्य प्रकटीकरणं भवति
प्रकटीकरणं भवति उत्तमम् उत्तमं चतुर्थं करोतु
चित्तं यदा चित्तं विनीतं
तदभवत् तदभवत् अपि च चतुर्थं द्रष्टा अनुपश्यति
द्रष्टा अनुपश्यति भगवद्भावं प्राप्नोति यदा द्रष्टा अनुपश्यति तदा भगवद्भावं प्राप्नोति यदा द्रष्टा अनुपश्यति न जानामि अनुपश्यति किम्
अत्र 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 एकवारं द्रष्टा इति पदमस्ति द्रष्टा इति पदस्य विषये किञ्चित् वदतु अत्र तनय् महोदय भवान् वक्तुं शक्नोति वा द्रष्टा इति पदस्य रूपं किम्
आं भगिनि द्रष्टा इति तान्तपदमस्ति दृश् योगः त इति कृत्वा स्त्रीलिङ्गरूपं दृष्टा इति भवति
अत्र महोदय अत्र अहं चिन्तयामि सुन्दरं सुन्दरं कः वदति अत्र भवान् अत्र रघुपति आचार्यमहोदय वदतु
दृष्टारः इति दृष्टा या पश्यति सः दृष्टा दृष्टा इति रूपमस्ति दृष्टा भविता भविता तदेव भगिनी दृष्टारः दृष्टा यत् पश्यति
उषा भगिनी भवती वदतु
ऋकारान्तपदमस्ति भगिनी दृष्टा
रूपाणि वदतु अत्र उषा भगिनी वदतु
दृष्टा दृष्टा
अत्र पश्यतु भगिनी अत्र सर्वे पश्यन्तु अत्र दृष्टा इति न दत्तमस्ति द्रष्टा
दृष्टा अनुपश्यति
अत्र पश्यन्तु भेदः अस्ति दृश् धातुतः द्रष्टा इति पदम् आगतं तृच् तृच् इति प्रत्ययः तत्र न तु क्ता प्रत्ययः नास्ति तत्र तृच् प्रत्ययः तृच् प्रत्ययं योजयामश्चेत् तत्र ऋकारान्तपदं सिद्ध्यति यथा ऋकारान्तपदं सिद्ध्यति अत्र मातापिता इति वयं जानीमः परन्तु तत्र रूपाणि मातापिता इव नास्ति अत्र रूपाणि तथा न सन्ति यथा कर्ता कर्तापदम् इव द्रष्टापदस्य रूपाणि सिद्ध्यन्ति अधुना उषा भगिनी वदतु
द्रष्टा अनुपश्यति
न अत्र द्रष्टापदस्य प्रथमाविभक्त्यन्तरूपाणि कानि अत्र कर्तापदम् इव भगिनि अथवा आचार्य महोदयः उक्तवान् भविता भविता शब्दवत् वदतु महोदय उत्तमं भविता भवितारौ भवितारः तथा एव द्रष्टा द्रष्टारौ द्रष्टा द्रष्टारौ द्रष्टारः परन्तु माता शब्दं वदतु भगिनि
माता मातरौ मातरः हे मातः हे मातरौ हे
मातर अत्र किं भवति द्विवचने अत्र मातरौ तत्र ह्रस्व ह्रस्वरूपमस्ति परन्तु द्रष्टाशब्दं पश्यामश्चेत् द्रष्टारौ इति भवति तत्र दीर्घमस्ति
द्रष्टारौ इत्युक्ते किं भगिनि
द्रष्टा यः पश्यति सः एव द्रष्टा
ओके द्रष्टारौ
तत्र वेदान्ते द्रष्टा दृक् दृश्यम् एतानि पदानि आगच्छन्ति
ऋषयः मन्त्रद्रष्टारः मन्त्रद्रष्टारः
सुन्दरं सुन्दरं ऋषिः इत्युक्ते कः ऋषिः इति पदस्य निर्वचनं वदतु इति वदामश्चेत् ऋषयः मन्त्रद्रष्टारः इत्युक्ते ते किं कृतवन्तः मन्त्रान् दृष्ट्वा मन्त्राणां विषये चिन्तनं कृत्वा मन्त्रान् दृष्ट्वा ते अस्माकं कृते दत्तवन्तः अतः ऋषिः इत्युक्ते मन्त्रद्रष्टः मन्त्रद्रष्टा उत्तमम् अनन्तरम् अत्र महोदय वदतु अनुपश्यति इति पदमस्ति वयं पश्यति इति पदं जानीमः अनुपश्यति इत्युक्ते मुहुर्मुहुः पश्यति इत्युक्ते यः सर्वदा भगवतः दिशि पश्यति सः किं प्राप्नोति भगवद्भावं प्राप्नोति सर्वदा भगवतः दिशि पश्यति स एव द्रष्टा सः भगवद्भावं प्राप्नोति पञ्चमं करोतु
यथा दृष्टा अनुपश्यति
मोहकलिलं
पञ्चमम् ओके मोहकलिलं नश्यति निर्वेदः भवति यदा मोहकलिलं नश्यति तदा मनुष्यनिर्वेदः भवति
उत्तमम् इत्युक्ते किम् अत्र मोहकलिलम् इति पदमस्ति वदतु
मोहस्य कलिलं कलिलं मोहस्य कलिलं यदा नश्यति.
सुन्दरम्. इत्युक्ते अत्र मोहकलि यथा भवान् उक्तवान् तत्र मोहस्य कलिलं यदि समासः विषयः अस्ति अत्र मोहकलिलं. कलिलम् इत्युक्ते किं?
कलिलं कलिमा कलिमा शब्देन कलिलं जातः. कलिमा कलिमा
अत्र उषा भगिनी वदति वा किञ्चित्?
माया अस्ति मोहकलिलम् इत्युक्ते भगिनि
माया अथवा भ्रमः.
भ्रमः कन्फ्यूजन् भ्रमः एव भगिनि अहं सम्यक् न जानामि परन्तु पठितं मोहकलिलम् इति तस्य उपयोगः भ्रम
मोहभ्रान्तिः अस्ति भगिनि.
भ्रान्तिः अथवा भ्रमः अथवा मूढता किमपि. अत्र यदा मोहकलिलं नश्यति तदा निर्वेदः भवति. अत्र अत्र अस्मिन् वाक्ये निर्वेदः इत्युक्ते किं?
निर्वेदः भवति.
कोऽपि वदतु.
विरक्ति विरक्ति भवति. वैराग्यं
वैराग्यं भवति अथवा विरक्तिः भवति नो चेत् निस्सङ्गता भवति अथवा उपेक्षाभावः भवति. उत्तमम्. अनन्तरं षष्ठं वाक्यं करोतु महोदय.
अधर्मस्य अभ्युत्थानं भगवता आविर्भाव. यदा अधर्मस्य अभ्युत्थानं भवति तदा भवतः आविर्भावः भवति. तदा भवतस्य आविर्भावः भवति
इत्युक्ते अधर्मस्य अभ्युत्थानम् अभि उपसर्ग अत्र पश्यन्तु अभ्युत्थानम् अभि उपसर्गपूर्वकः उत् उपसर्गपूर्वकः स्थाधातुः अभ्युत्थानम् इति पदमस्ति. तस्य विषये किञ्चित् वदतु.
वर्धनं भवति अभ्युत्थानं वर्धनं भवति.
वर्धनं भवति यदा अधर्मस्य वर्धनं भवति वृद्धिः भवति तदा किं भवति?
भगवतस्य आविर्भावः भवति. भगवतस्य मने सन्तिष्ठति मने तिष्ठति.
उत्तमम्. उत्तमं धन्यवादः महोदय. अनन्तरम् अत्र गीताञ्जलि भगिनी भवती करोतु सप्तमं वाक्यम्.
निश्चला बुद्धिः योगः भवति. यदा निश्चला बुद्धिः अस्ति तदा योगः भवति.
अत्र निश्चला इति पदं तस्मिन् विषये वदतु.
निश्चला इत्युक्ते विशेषणं बुद्धिः स्त्रीलिङ्गपदं.
बुद्धिः स्त्रीलिङ्गपदं तस्य विशेषणं निश्चला. यदा निश्चला बुद्धिः भवति तदा स एव योगः. अनन्तरं
कर्मसु अनुषज्यते योगारूढः भवति. यदा कर्मसु अनुषज्यते तदा योगारूढः भवति.
अत्र अनुषज्यते इति पदमस्ति इत्युक्ते किम्?
न जानामि.
कोऽपि वदति वा? अत्र शोभा भगिनी प्रयत्नं करोतु. अनुषज्यते इत्युक्ते
अनुषज्यते कर्मसु सप्तमी अनुषज्ज सज्जता अर्थम् जानामि किन्तु अनुषज्यते न जानामि. कर्मसु अनुषज्यते योगारूढः भवति. यदि कर्मसु सप्तमी
वचनं किं?
वचनं एक कर्मसु बहुवचनं कर्मसु अनुषज्यते योगारूढः अर्थं
भवती यद् अवगतवती तत् प्रयत्नं करोतु.
यदि योगारूढः भवति चेत् योग आरूढः भवति कर्मं शुद्धं करणीयं यथा अनुषज्यते शुद्धं सकर्म.
अत्र पश्यतु भगिनि अनुषज्यते इत्युक्ते आश्रयते
आश्रयते
इत्युक्ते यदा वयं कर्मसु निमग्नाः भवामः कर्मसु निमग्नाः भवामः स एव योगारूढः. अत्र योगारूढः अत्र समासः अस्ति तस्य सप्तमी तत्पुरुषसमासः इति वदामः योगे आरूढः. अत्र भवती जानाति एव आरोहणम् इति पदं जानाति एव आ उपसर्गपूर्वकः रुह् धातुः तथा अत्र ल्युडन्तरूपम् आरोहणं परन्तु अत्र क्तान्तरूपं दत्तमस्ति आ उपसर्गपूर्वकः रुह् धातुः योगः क्तान्तरूपम् आरूढ भवति. तत्र बहवः सन्धिकार्याणि सन्ति वह् धातुतः ऊढ रुह् धातुतः रूढ तथा एव सः धातुतः सोढ न वह् धातुतः ओढ रुह् धातुतः रूढ सः धातुतः सोढ इति रूपाणि क्तान्तरूपाणि आगच्छन्ति. अत्र पदमस्ति योगारूढः भवति कः भवति
योगारूढः
योगारूढः भवति कः पुरुषः भवति किं कुर्मः चेत् योगारूढः भवामः रूढाः भवामः
कर्मसु अनुषज्यते चेत् योगारूढः भवामः
इत्युक्ते यदि कर्मणि निमग्नः भवामः चेत् तदा योगारूढः भवामः
कर्मयोगम्
तदेव स एव कर्मयोगः. अग्रिमं करोतु अत्र नवमं भवती एव करोतु इन्द्रियाणि.
इन्द्रियाणि विषयेभ्यः निवर्तन्ते स्थितप्रज्ञः उच्यते. यदा इन्द्रियाणि विषयेभ्यः निवर्तन्ते तदा स्थितप्रज्ञः उच्यते. यदा इन्द्रियाणि विषयेभ्यः कोऽपि विषयेभ्यः बहुवचनम् इन्द्रियाणि बहवः विषयानि सर्वदा कार्यं कुर्वन्ति तदेव मनश्शान्ति न भवति अतः इन्द्रियाणि विषयेभ्यः निवर्तन्ते संयमं कुर्वामः चेत् वयं स्थितप्रज्ञः अभवामः भवामः स्थितप्रज्ञः भवामः.
अत्र पश्यतु विषयेभ्यः तस्य लिङ्गवचनविभक्तिः विभक्तिं वदतु
विषयेभ्यः यथा राम
ओके अत्र पश्यतु अत्र लिङ्गं किं वचनं किं विभक्तिः
विषयः अस्ति भगिनि पुंलिङ्गे विषयः विषयः विषयेभ्यः
वदतु
चतुर्थी अथवा पञ्च न विषयेभ्यः रामा ओके रामा पदवत् अस्ति चेत् पञ्चमी एव ओके भग स्थितप्रज्ञः उच्यते इन्द्रियाणि विषयेभ्यः निवर्तन्ते
एभ्यः
वदतु यथा भवती उक्तवती अत्र चतुर्थी बहुवचनं पञ्चमी बहुवचनं समानमेव परन्तु अस्मिन् वाक्ये चतुर्थीरूपम् अस्ति वा पञ्चम्यन्तरूपम् अस्ति वा
इन्द्रियाणि विषयेभ्यः निवर्तन्ते वयं निवर्तनं
कुर्मः
कस्मात् अत्र चतुर्थी अस्ति चेत् टु देम् टु इन्द्रियाणि
तने भवती चिन्तयतु तने महोदय भवान् वदतु अत्र चतुर्थीरूपम् अस्ति वा पञ्चमीरूपम् अस्ति वा
अहं चिन्तयामि अत्र पञ्चमी रूपम् अस्ति
पञ्चमीरूपम् अस्ति इन्द्रियाणि विषयेभ्यः निवर्तन्ते कुतः निवर्तन्ते विषयेभ्यः निवर्तन्ते अत्र इन्द्रियम् एकवचनरूपम् इन्द्रियाणि भगिनी शोभा भगिनी वदतु अत्र णत्वं किमर्थमस्ति
रकारम् आगच्छति तत् तदनन्तरं आकारः भवति अतः बाधा न भवति तत्र नकारस्य णकारम् आगतुं बाधा न भवति
सुन्दरं सुन्दरम् इत्युक्ते अत्र इन्द्रियाणि इत्यस्मिन् पदे रेफात् अनन्तरं के के वर्णाः सन्ति
य योगः दीर्घ आकारः वर्णद्वयं सन्ति
अत्र एकवारं चिन्तनं करोतु अत्र इन्द्रियाणि इति पदमस्ति इन्द्रियाणि इत्यस्मिन् अत्र रेफस्य अनन्तरं के के वर्णाः सन्ति
इन्द्रियाणि रेफः रकारः योगः इकारः योगः यकारः योगः दीर्घ आकारः सन्ति
सुन्दरम् इत्युक्ते अत्र इकारः अस्ति यकारः अस्ति अपि च दीर्घ आकारः अस्ति परन्तु एते वर्णाः बाधां न कुर्वन्ति एते बाधकवर्णाः न सन्ति एतानि वर्णानि सन्ति चेदपि णत्वस्य कृते बाधा न भवति तदर्थमेव अत्र णत्वम् अभवत् उत्तमम् अनन्तरम् अग्रिमं करोतु
कामः भवति क्रोधः भवति यदा कामः भवति तदा क्रोधः भवति
अत्र कामः इत्युक्ते किम्
कामः इत्युक्ते डिज़ैर् संस्कृते कामः इच्छा भवति इच्छा भवति चेत् कामाः यदि न पूरयति तदा क्रोधः भवति तत्कारणेन
सुन्दरं सुन्दरं यदा इच्छा न पूरयति तदा क्रोधः भवति तदर्थमेव क्रोधात् भवति सम्मोहः एकवारं वंशीसुधा भगिनी उक्तवती
श्लोकस्य
अन्ते बुद्धिनाशः प्रणश्यति इति दत्तमस्ति
बुद्ध्याः नाशं भवति
उत्तमम् उत्तमम् धन्यवादः भगिनी पुनः गीताञ्जलि भगिनी भवती करोतु अग्रिमम्
सङ्गः भवति कामः भवति सङ्गः यदा सङ्गः भवति तदा कामः अभवत् इत्युक्ते सङ्गः इत्युक्ते मोह
अत्र अत्र सङ्घः इत्युक्ते भवती किम् अवगतवती? अत्र सङ्घः इत्युक्ते सम्पर्कः अथवा स्पर्शः अथवा संसर्गः इत्युक्ते तस्य अर्थाः सन्ति. अग्रिमं करोतु. यदा सम्पर्कः भवति यदा सम्पर्कः भवति तदा एव इच्छा जनयति.
यदा विषय सम्पर्कः भवति तदा तं विषयः कामः भवति.
तस्मिन् विषये कामः भवति.
विषये कामः भवति.
उत्तमम्. अग्रिमम्.
अभयं भवति. देवी सम्पत् भवति. यदा अभयं भवति तदा देवी सम्पत् भवति. इत्युक्ते यदा भय नास्ति, यदा मनसि भय नास्ति तदा अधिकाः देवीः भवति.
यदा सुन्दररीत्या उक्तवती भगिनी, यदा मनसि भयं नास्ति, केवलं शान्तिः एव अस्ति, तदा देवी सम्पद् भवति. अत्र सम्पद् इति पदं पूर्वस्मिन् कक्षे वयं चिन्तितवन्तः. दकारान्तपदं स्त्रीलिङ्गपदं सम्पद्. सम्पद् इति प्रथमाविभक्ति एकवचनरूपम् अस्ति. अग्रिमं करोतु.
आत्मज्ञानं भवति, वैराग्यं भवति. यदा आत्मज्ञानं भवति तदा वैराग्यं भवति. यदा स्वस्य सतीरूपं पश्यति तदा किञ्चित् विषया मोहः इत्युक्ते कामः न भवति.
इत्युक्ते अत्र सुन्दरम् इत्युक्ते अत्र विरागस्य भावः वैराग्यम् इति तत्र तद्धितान्तरूपम् अस्ति. अग्रिमं करोतु.
कामान् प्रजहाति प्रज्ञता. यदि कामान् प्रजहाति तथा हितप्रज्ञता भवति.
इत्युक्ते किम्?
इत्युक्ते
कः वदति अत्र? उषा भगिनी वक्तुं शक्नोति वा?
कामान् प्रजहाति. प्रजहाति इत्युक्ते त्यजति. कामान् त्यजति सः स्थितप्रज्ञः अस्ति, लैक् स्टेबल् स्थितप्रज्ञा.
अस्मिन् वाक्ये कर्मपदं किम्?
कामान्.
कामान् अत्र प्रजहाति. अत्र प्र उपसर्गपूर्वकः, हा धातुः. अत्र जुहोत्यादिगणीयधातुः अस्ति. जुहोत्यादिगणे अत्र प्रथमधातुः एव जुहो जहाति. जहाति जहाति इति लट्लकाररूपं प्रथमाविभक्त्यन्तरूपं क्षम्यतां प्रथमपुरुषे एकवचनरूपं जहाति. अत्र धातुः अस्ति हा धातुः, जुहोत्यादिगणीयधातुः. प्रजहाति. प्रजहाति इत्युक्ते यः कामान् त्यजति स एव. वदतु महोदय.
कामान् बहुवचने अस्ति, द्वितीयविभक्ति.
द्वितीयविभक्ति बहुवचनं. सः एव स्थितप्रज्ञतां प्राप्तुं शक्नोति. अत्र स्थितप्रज्ञः इति पदमस्ति, अपि च स्थितप्रज्ञता अपि अस्ति. स्थितप्रज्ञता इत्यस्मिन् एकः प्रत्ययः अस्ति, भाववाचकप्रत्ययः, तल् प्रत्ययः इति वदामः. यथा मधुरता, विशिष्टता, तथा एव अत्र स्थितप्रज्ञता, तल् प्रत्ययः अस्ति. यः कामान् त्यजति स एव स्थितप्रज्ञतां प्राप्तुं शक्नोति. अन्तिमं करोतु भगिनि.
भगिनि, मम एकः प्रश्नः, जहाति पदं जिहोति पदस्य रूपम् अर्थम् अपि अस्ति वा?
अत्र जुहोत् गणः, अत्र वयं जानीमः संस्कृतभाषायां तस्य गणाः सन्ति, तेषु अन्यतमः जुहोत्यादिगणः. अत्र अयं धातुः जुहोत्यादिगणीयधातुः. अत्र जहाति, प्रजहाति.
हा, जुहोति इत्युक्ते आब्लेशन् आफरिङ्ग्, यथा अत्र कामान् आफरिङ्ग् देम् इन् टु द फायर् आफ् नालेज्, तथा जहाति जुहोति अर्थम् एकम् अस्ति वा अथवा
भिन्नरूपे? अत्र द्रष्टव्यं भगिनि. अत्र जहाति इति पदस्य रूपाणि जहाति, जहीतः, जहति तथा भवन्ति रूपाणि, किञ्चित् भिन्नरूपाणि. अत्र गणमनुसृत्य तत्र वयम् अग्रे गत्वा पठिष्यामः, विकरणप्रत्ययम् अनुसृत्य तत्र रूपाणि भिद्यन्ते, लट्लकाररूपाणि. जहाति, जहीतः, जहति इति अत्र हा धातोः प्रथमपुरुष एकवचनरूपाणि, एकवचनं बहुवचनं प्रथमपुरुषरूपाणि भवन्ति. परन्तु भवती यदुक्तवती तत्र दृष्ट्वा एव अहं वक्तुं शक्नोमि.
अस्तु भगिनि.
अनन्तरम् अत्र किं कुर्मः, अत्र मूर्खाः शुकाः इति कथा अपि अस्ति, अपि च अस्माकं पार्श्वे अन्यः विषयः अपि अस्ति. अत्र केवलम् अभ्यासपुस्तकं प्रति गच्छेम. अधुना सर्वे एकवारम् अभ्यासपुस्तकं पश्यन्तु. अत्र नवचत्वारिंशत्तमे पुटे अथवा एकोनपञ्चाशत्तमे पुटे 18.1 भागे किमस्ति इति एकवारं पश्येम. अत्र तने महोदय भवान् करोतु. अत्र
अत्र गत आगामि इति
महोदय, अत्र यदि भवतः पुस्तकं भिन्नम् अस्ति चेत् अत्र किं वदामि इत्युक्ते 18.1 भागे 1, 2, 3, 4 इति संख्यानां विषये.
अस्तु, प्राप्तवान्. 1, 2, 3, 4 इत्येतासां लिङ्गभेदः अस्ति, तत् अनन्तरं लिङ्गभेदः नास्ति.
अत्र इत्येते महोदय, इत्येतासाम् अत्र सन्धेः नाम किम्?
अत्र यणसन्धिः अस्ति इति योगः एतासाम्.
एतासां रूपं किम्?
एतासां रूपमस्ति षष्टि बहुवचन रूपमस्ति. एतत् पदस्य स्त्रीलिङ्गरूपम्.
स्त्रीलिङ्गरूपं, स्त्रीलिङ्गरूपम्. उत्तमम्, उत्तमम्. अत्र लिङ्गभेदः अत्रापि परसवर्णसन्धिः अस्ति. अनन्तरं पठतु महोदय.
महोदय, किमर्थम् एतेषां न दत्तमस्ति? एतेषाम् इत्येतेषां
किञ्चित् वदतु महोदय, भवान् एव चिन्तनं करोति चेत्. अत्र संख्या
आकारः. अस्तु अस्तु, संख्या अस्ति अतः. ओके ओके, संख्या संख्या इत्यनेन. ओके,
अत्र तने महोदय पठतु.
तदनन्तरं लिङ्गभेदः नास्ति. एकं पुल्लिङ्गरूपम् एकः बालकः, स्त्रीलिङ्गरूपम् एका बालिका, नपुंसकलिङ्गरूपम् एकं फलम्. अग्रे अपि पठामि भगिनि?
पठतु, सर्वं पठतु महोदय.
पुल्लिङ्गरूपं बालकद्वयम्, अत्र तु स्त्रीलिङ्गरूपं बालिकाद्वयं, नपुंसकलिङ्गरूपम् अपि फलद्वयम्, अत्र तु कोऽपि भेदः
अत्र नास्ति. अत्र यदा वयं भिन्नरीत्या वदामश्चेत् किं वदामः?
भिन्नरीत्या वदामः चेत् द्वौ बालकः, द्वे बालिका, द्वौ बालकौ, द्वे बालिके, द्वौ फले,
सम्यक् सम्यक्. किञ्चित् किञ्चित् समीकृत्य वदतु महोदय, पुनः एकवारं वदतु.
द्वौ बालकौ, द्वे बालिके, द्वे फले.
उत्तमम्. अग्रिमं.
त्रीणि पुल्लिङ्गरूपं, त्रयः बालकाः, स्त्रीलिङ्गरूपं, तिस्रः बालिकाः, नपुंसकलिङ्गरूपं, त्रीणि फलानि.
भिन्नरीत्या वदामश्चेत् किं वदामः अत्र?
अत्र यदि यदि भिन्नरीत्या वदामः तर्हि बालकत्रयं, बालिकात्रयं, फलत्रयं.
सुन्दरम्
इति
अग्रिम. सुन्दरं महोदय, सम्यक् एव. अनन्तरं
तदनन्तरं चत्वारि पुल्लिङ्गरूपम् अस्ति, चत्वारः बालकाः, स्त्रीलिङ्गरूपम् अस्ति, चतस्रः बालिकाः, नपुंसकलिङ्गरूपम् अस्ति, चत्वारि फलानि. यदि वयं भिन्नरीत्या वदामः तर्हि बालकचत्वारं, बालिकाचत्वारं, फलचत्वारं.
महोदय अत्र चतुष्टयं चतुष्टयं चतुष्टयम्
अस्तु भगिनि, चतुष्टयं
समीकृत्य वदतु.
अत्र भिन्नरीत्या वदामः चेत् बालकचतुष्टयं, बालिकाचतुष्टयं, फलचतुष्टयम् इति भवति.
अग्रिमम्.
अग्रिमं पञ्च पुल्लिङ्गरूपं, पञ्चबालकाः, स्त्रीलिङ्गरूपं, पञ्चबालिकाः, नपुंसकलिङ्गरूपं, पञ्चफलानि. यदि भिन्नरीत्या वदामः अहं चिन्तयामि बालकपञ्चम् इति सम्यक् वा?
पञ्चकं
पञ्चतम् अस्तु.
पञ्चकं ककारः.
अस्तु भगिनि, बालकपञ्चतं, बालिकापञ्चतं, फलपञ्चतं.
महोदय तत्र तकारः नास्ति महोदय, ककारः.
पञ्चकं
पञ्चकम्
अस्तु भगिनि
इति अहम् चिन्तयामि. अत्र किं वदामः, समूहवाचकशब्दाः इति वदामः. धन्यवादः महोदय.
एतं रूपं कथं ज्ञातुं, कथं ज्ञातव्यं चतुष्टयं, पञ्चकम् इति रूपं कथं ज्ञातव्यम्?
अत्र एकः विषयः अस्ति महोदय, समूहवाचकशब्दाः इति वदामः. तत्र समूहरूपेण वदामश्चेत् कथं वक्तव्यम् इति, तादृशरूपाणि सन्ति भाषायां सन्ति. तत्र एकवारम् अहं पूर्वस्मिन् कक्षायाम् अहम् उक्तवती, परन्तु पुनः तत्र समूहवाचकशब्दाः इति एकः विषयः, दट्स् अनदर् टापिक् अस्ति. अस्तु, धन्यवादः महोदय. अनन्तरम् अत्र सतीश् महोदय, भवान् कर्तुम् इच्छति वा? अग्रिमे पुटे अभ्यासः अस्ति, एकतः आरभ्य पञ्चपर्यन्तं वदतु अग्रिमे पुटे.
अग्रिमे ओके. एकः युक्तम्, एकः युक्तं, चत्वारि शुनकः
महोदय अत्र अत्र पश्यतु अत्र एकमेव युतकम् अस्ति तथा तदर्थम् एकं युतकम् इति उक्तवान् तदनन्तरं यदि अत्र युतकद्वयमस्ति चेत् किं वदामः त्रयमस्ति चेत् किं वदामः चत्वारः अस्ति चेत् तथा वदतु पञ्चपर्यन्तं
युत्कम् एकं युत्कं द्वयं युत्कं त्रयं युत्कं चतुष्टयं युत्कं पञ्चकम्
उत्तमं धन्यवादः महोदय अनन्तरम् अत्र शोभा भगिनी भवती वदतु अत्र द्वितीयं करोतु
शुनकः एकः शुनकः शुनकद्वयं शुनकत्रयं शुनकचतुष्टयं शुनकपञ्चकम्
अत्र तत् सम्यक् रीत्या उक्तवती परन्तु भिन्नरीत्या वदतु अत्र
एकः शुनकः द्वे शुनकौ
द्वौ
द्वौ सारि द्वौ शुनकौ त्रीणि हा त्रीणि शुनकाः
न भगिनि
त्रय त्रय त्रयः शुनकाः चत्वारः शुनकाः पञ्चमः शुनकाः पञ्चशुनकाः
अनन्तरं पिपीलिका वदतु
पिपीलिका एका पिपीलिका द्वे पिपीलिके पिपीलिकाद्वयं द्वे पिपीलिके त्रया पुंलिङ्गः त्रीणि स्त्रीलिङ्ग अस्ति वा त्रीणि त्रीणि पिपीलिकाः
न भगिनि
तिस्र पिपीलिकाः
तिस्रः
पिपीलिका स्त्रीलिङ्ग अस्ति भगिनि
तिस्रः पिपीलिकाः सन्ति
तिस्रः पिपीलिकाः सन्ति चत्वारि चतुष्टयं पिपीलिकाः
न भगिनि अत्र पश्यतु अत्र यदि फोर् अस्ति चेत् किं वदामः
चत्वारि
न भगिनि
चतुर्थी नो दट्स् डिफरेंट
चतस्रः
ओके ओके चतस्रः पिपीलिकाः पञ्चपिपीलिकाः
सुन्दरम् उत्तमम् अनन्तरम् उषा भगिनी भवती करोतु
गजः एकः गजः अस्ति गजद्वयम् अस्ति द्वे गजौ स्तः
न भगिनि
द्वे गजौ स्तः
द्वौ
गजौ स्तः त्रयः गजाः सन्ति चत्वारः गजाः सन्ति पञ्चगजाः सन्ति
सुन्दरम् अग्रिमं
सिंहः एकः सिंहः अस्ति सिंहद्वयम् अस्ति द्वौ सिंहौ स्तः त्रयः सिंहः सन्ति चत्वारः सिंहः सन्ति चत्वारः सिंहाः सन्ति पञ्चसिंहाः सन्ति
उत्तमम् अग्रिमं
धेनुः एका धेनुः अस्ति धेनुद्वयम् अस्ति
अथवा
द्वे धेनू स्तः तिस्रः धेनवः सन्ति चतस्तरः धेनवः सन्ति पञ्चधेनवः सन्ति
सुन्दरम् अनन्तरम् अत्र गीताञ्जलि भगिनी भवती करोतु
एका मक्षिका अस्ति, द्वे मक्षिका सः अथवा
अत्र अत्र मक्षिका सम्यक् नास्ति.
द्वे मक्षिके सः क्षम्यताम्
अथवा
मक्षिका द्वयं सः
अस्ति. यदि द्वयम् इति वदामश्चेत् मक्षिका द्वयम् अस्ति, मक्षिका त्रयम् अस्ति इति वदामः. नो चेत् भिन्नरीत्या वदामश्चेत् द्वे मक्षिके स्तः तिस्रः मक्षिकाः सन्ति, तथा वदामः. वदतु
किमर्थम् अस्ति, किमर्थम् अस्ति
द्वयम्? तादृशरीत्या एव वक्तव्यं भगिनि, तथा एव वक्तव्यम्.
अस्तु अस्तु भगिनि, अस्तु. मक्षिका द्वयम् अस्ति, तिस्रमक्षिकाः सन्ति, चतस्रमक्षिकाः सन्ति, पञ्चमक्षिकाः सन्ति.
सुन्दरं. मक्षिका इत्युक्ते किम्?
मक्षिका इत्युक्ते मक्षि, फ्लै, मक्षि.
सुन्दरं. अग्रिमं करोतु, शीघ्रं समापयामः.
गर्दभः, एकः गर्दभः अस्ति, गर्दभद्वयम् अस्ति, द्वौ गर्दभौ सः, त्रयः गर्दभाः सन्ति, चत्वारः गर्दभाः सन्ति, पञ्चगर्दभाः सन्ति.
उत्तमं. व्याघ्रः?
एकः व्याघ्रः अस्ति, व्याघ्रद्वयम् अस्ति,
व्याघ्र भगिनि अत्र व्याघ्रद्वयं, तत्र विसर्गः नास्ति.
अस्तु भगिनि, व्याघ्रद्वयम् अस्ति, द्वौ व्याघ्रौ सः, त्रयः व्याघ्राः सन्ति, चत्वारः व्याघ्राः सन्ति, पञ्च व्याघ्राः सन्ति, अथवा पञ्चकं व्याघ्राः सन्ति.
व्याघ्रपञ्चकं भगिनि, व्याघ्रपञ्चकम् अस्ति.
व्याघ्रपञ्चकम् अस्ति, व्याघ्रचतुष्टयम् अस्ति, व्याघ्रत्रयम् अस्ति.
व्याघ्रत्रयम् अस्ति. उत्तमम्. अग्रिमं रघुपत्याचार्यमहोदय भवान् करोतु अत्र.
एकनिमिषम्. अर्धोरुकम्, एकम् अर्धोरुकं, द्वे अर्धोरुके, अर्धोरुकद्वयं, त्रीणि अर्धोरुकानि अथवा अर्धोरुकत्रयं, चत्वारि अर्धोरुकानि सन्ति अथवा अर्धोरुक चतुष्टयम् अस्ति, पञ्च अर्धोरुकानि सन्ति अथवा अर्धोरुकपञ्चकम्.
अत्र पश्यतु महोदय, अत्र णत्वम् अस्ति वा न वा?
कुत्र?
अर्धोरुकानि तत्र
अर्धोरुकं का अर्धोरुकम् अस्ति, अति अस्ति अस्ति अर्धोरुक अर्धोरु का अपि मा अपि अस्ति तत्र अर्धोरुकानि 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 नत्वं भवति
भवति चेत् सम्यक् रीत्या उच्चारयतु महोदय.
अर्धोरुक अर्धोरुकानि, ओके, तिस् त्रीणि अर्धोरुकाणि सन्ति, पञ्च अर्धोरुकाणि सन्ति.
अग्रिमं करोतु
अथवा अग्रिमं किम् अस्ति माला ओके माला एका माला अस्ति द्वे माले स्तः अथवा माला द्वयम् अस्ति तिस्रः मालाः सन्ति माला मालात्रयम् अस्ति चतस्रः मालाः सन्ति माला चतुष्टयम् अस्ति पञ्चमालाः सन्ति मालापञ्चकम् अस्ति
अग्रिमं करोतु ऊरुकम्
ऊरुकम् ओके यत् अत्रापि अस्ति ओके एकम् ऊरुकं द्वे ऊरुके स्तः अथवा ऊरुकद्वयमस्ति त्रीणि ऊरुकाणि सन्ति ऊरुकत्रयम् अस्ति चत्वारि ऊरुकाणि सन्ति ऊरुकचतुष्टयम् अस्ति पञ्च ऊरुकाणि सन्ति अथवा ऊरुकापञ्चकम् ऊरुकपञ्चकम्
अनन्तरम् अत्र ऊरुकम् इत्युक्ते
ऊरुकम् इत्युक्ते चित्रं दत्तमस्ति ऊरुकम् अर्धोरुकम् अर्धोरुकम् इत्युक्ते
आङ्ग्लभाषायां वदतु
पेण्ट् अस्ति शार्ट्स्
अत्र अर्धोरुकम् इत्युक्ते शार्ट्स् परन्तु अत्र
पादांशुकम् इत्युक्ते साक्स् अस्ति न पादांशुकं सारि पाद साक्स् अस्ति कुत्र अस्ति पादांशुकम् ओके सारि
धन्यवादः महोदय अनन्तरम् अत्र तनय् महोदय भवान् करोतु गृहगोधिका
पाञ्चालिका एका पाञ्चालिका
महोदय अत्र अत्र पाञ्चालिका इति अस्ति वा
नो
अत्र
अनन्तरं पाञ्चालिका अस्ति
अस्तु पठतु अत्र मम पुस्तके गृहगोधिका इति अस्ति पठतु सम्यक् महोदय पठतु
एका पाञ्चालिका द्वे पाञ्चालिके अथवा पाञ्चालिकाद्वयं तिस्रः पाञ्चालिकाः अथवा पाञ्चालिकात्रयं चतुस्रः पाञ्चालिकाः अथवा पाञ्चालिकाचतुष्टयं पञ्चपाञ्चालिकाः अथवा पाञ्चालिका पञ्चकं तद् अनन्तरं करांशुकम् एकं करांशुकं द्वे करांशुके अथवा करांशुकद्वयं त्रीणि करांशुकानि अथवा करांशुकत्रयं चत्वारि करांशुकानि अथवा करांशुकचतुष्टयं पञ्च करांशुकानि अथवा करांशुकपञ्चकम्
अत्र करांशुकम् इति पदमस्ति तत्र णत्वम् अस्ति वा न वा
करांशुकं रकारः रेफः तु अस्ति तद् अनन्तरं बाधा अस्ति न वा
अत्र महोदय अत्र बाधकवर्णाः सन्ति शकारः बाधकवर्णः तदर्थं तत्र अणत्वं न सिध्यति तदर्थं केवलं करांशुकानि एव भवति न तु करांशुकाणि इति न भवति तत्र तस्मिन् पदे निमित्तमस्ति परन्तु बाधकवर्णाः सन्ति तदर्थं णत्वं न भवति अत्र इतोपि पञ्चपदानि सन्ति भवन्तः सर्वे गृहपाठरूपेण गृहे एकवारम् अभ्यासं कुर्वन्तु. अत्र समयः जातः, परन्तु कथाः सन्ति, समयाभावकारणेन वयं न कृतवन्तः. अधुना अत्र स्थगयामः. सर्वेषां धन्यवादः.
भगिनी, अत्र समूहवाचकः अस्ति, तत्र